अथ अष्टम स्कंध
अथ सप्तदश अध्याय भगवान का प्रकट होकर अदिति को वर देना। श्री शुकावाच इतुक्त्वा सादिति राजन सुभद्रा कश्यपेन वही अनुतिष्ठत व्रतमिदं द्वादशाहम तंद्रिता चिंतयन्ते कया बुद्ध्या महापुरुषम ईश्वरम प्रगृहेन्द्रिय दुष्टास्वान मनसा बुद्धिसारथि मनश्चैकाग्रया बुद्ध्या भगवत्तखिलात्मनि वासुदेवे समाधाय चचारः पयोव्रतम् तस्याः प्रादुर्भूतात् भगवानादिपुरुषः पीतवासाश्चतुर्बाहुः शङ्खचक्रगदाधरः तम् नेत्रगोचरम् वीक्ष्य सहसोत्थाय सादरम् न नाम भूविकायेन दण्डवत् प्रीतिविह्वलः सोत्थाय बद्धाञ्जलिरीडितुम् स्थिता नोत्सेहयानन्दजलाकुलक्षणा बभूवतुश्रीम् पुलकाकुलाकृति तद्दर्शनात्युत्सवगात्र बेपथुः प्रीत्या शनैर्गद्गदया गिराहरिम् तुष्टावसादेव्यदितिः कुरुद्वः उद्वीक्षति सा पिबतीव चक्षुषा रमापतिम् जज्ञपतिम् जगत्पतिम् अदितिरुवाच जज्ञेश जज्ञपुरुषा चिततीर्थपाद तीर्थश्रवः श्रवणमङ्गलनामधेय आपन्नलोकब्रजनोपशमोदयाद्य शम्नः कृधीश भगवन्नसि दीननाथः विश्वाय विश्वभवन स्थितसंयमाय स्वैरम् गृहीत पुरुषक्तिगुणाय भुम्ने स्वस्थाय शश्वदुपबृंहित पूर्णबोध व्यापादितात्मतमसे हरये नमस्ते। आयुः परम् वपुरभीष्टमतुल्यलक्ष्मीर्द्योभूरसा सकलयोगगुणास्त्रिवर्गः ज्ञानम् च केवलमनन्त भवन्ति तुष्टात् त्वत्तो नृणाम् किमु सपत्नजयाधिराशिः। श्री शुक उवाच अदित्यैवम् स्थितो राजन् भगवान् पुष्करे क्षणः क्षेत्रज्ञः सर्वभूतानामिति होवाच भारत। श्रीभगवान् उवाच देवमातर्भवत्या मे विज्ञातम् चिरकाङ्क्षितम् यत्सपत्नैर्हृतश्रीणाम् चावितानाम् स्वधामतः तान् विनिर्जित्य समरे दुर्मदानसुरर्षभान् प्रतिलब्धजय श्रीभिः पुत्रैरिच्छसुपासितुम् इन्द्रज्येष्ठैः स्वतनैर्हतानाम् युधि विद्विषाम् स्त्रियो रुदन्तिरासाद्य द्रष्टुमिच्छसि दुःखितः आत्मजान् सुसमृद्धांस्त्वम् प्रत्याहृतजसः श्रियः नाकपृष्ठमधिष्ठाय क्रीडतो द्रष्टुमिच्छसि प्रायोऽधुना ते सुरयुत्थनाथा अपारणीया इति देवि मे मतिः यत्तेऽनुकूलेश्वर विप्रगुप्ता न विक्रमस्तत्र सुखम् ददाति। अथापि पायो मम देवि चिन्त्यः सन्तोषि तस्य व्रतचर्यया ते ममार्चनम् नार्हति गन्तुमन्यथा श्रद्धानुरूपम् फलहेतुकत्वात्। त्वयार्चितश्चाहमपत्यगुप्तये पयोव्रतेनानुगुणम् समाहितः श्वांसेन पुत्रत्वमुपेत्यते सुतान् गुप्तास्मि मारीच तपस्यधिष्ठितः। उपधाव पतिम् भद्रे प्रजापतिमकल्मषम् माम् च भावयति पत्यौ एवम् रूपमवस्थितम् नैतत् परस्मा आख्येयम् पृष्टयापि कथञ्चन सर्वम् सम्पद्यते देवी देवगुह्यम् सुसंवृतम्। श्रीशुक उवाच एतावदुक्त्वा भगवांस्तत्रैवान्तरधीयत अदितिर्दुर्लभम् लब्ध्वा हरेर्जन्मात्मनि प्रभो उपाधावत् पतिम् भक्त्या परया कृतकृत्यवत् स वै समाधियोगेन कश्यपस्तदबुध्यत प्रविष्टमात्मनि हरेरंसम् ह्यभितते क्षणः सोदित्याम् वीर्यमाधत्त तपसा चिरसंभृतम् समाहितमना राजन् दारुणग्निम् जथानिलः आदितेर्धिष्ठितं गर्भं भगवन्तं सनातनं हिरण्यगर्भो विज्ञाय समीडे गुह्यनामभिः ब्रह्मोवाच जयोरुगाय भगवन् उरुक्रम नमोस्तुते नमो ब्रह्मण्यदेवाय त्रिगुणाय नमो नमः नमस्ते पृश्निगर्भाय वेदगर्भाय वेधसे त्रिनाभाय त्रिपृष्ठाय शिपिविष्टाय विष्णवे त्वमाधिरन्तो भुवनस्य मध्यम् अनन्तशक्तिम् पुरुषम् यमाहुः कालो भवानाक्षिपतीश विश्वम् श्रोतो यथान्तः पतितम् गभीरम् त्वम् वै प्रजानाम् स्थिरजङ्गमानाम् प्रजापतीनामसि शम्भ विष्णुः दिवौकसाम् देवदिवश्चितानाम् परायणम् नोरिव मज्जतप्सु। इति श्रीमद्भागवते महापुराणे परमहंस्याम् संहितायाम् अष्टमस्कन्धे वामन प्रादुर्भावे सप्तदशोऽध्यायः।